इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका ऋचा झा। अथ वार्ताः। इंडिया एआई इम्पैक्ट समिट विंशति षड्विंशति इति शिखर सम्मेलनम् अद्य नवदिल्ल्याः भारत मण्डपम् इत्यत्र प्रारप्स्यते। पञ्चदिवसीय शिखर सम्मेलनमिदं ग्लोबल साउथ इत्यत्र आयोजयिष्यमाणं प्रथमं वैश्विक एआई सम्मेलनम् अस्ति। अस्मिन् कार्यक्रमे विंशति देशानां नेतारः भागं ग्रहीष्यन्ति। अत्र फ्रांस, ब्राजील, स्पेन, श्रीलंका, स्विट्जरलैंड देशानां राष्ट्रपतयः सम्मिलिताः भविष्यन्ति। सहैव मॉरिशस देशस्य प्रधानमंत्री डॉ नवीन चंद्र रामगुलामः तथा भूटानस्य प्रधानमंत्री शेरिंग टोबगे अपि सम्मिलितौ भविष्यतः। शिखर सम्मेलने पञ्चचत्वारिंशदधिक देशानां मंत्रिस्तरीय प्रतिनिधिमण्डलानि अपि भागं ग्रहीष्यन्ति। अस्माकं वार्ताहरः संसूचितवान् यत् संयुक्त राष्ट्र महासचिवः अथ नैकासाम् अन्ताराष्ट्रिय महासंघटनानां वरिष्ठाधिकारिणः अपि चर्चायै सम्मिलिताः भविष्यन्ति। प्रधानमंत्री नरेन्द्र मोदी अद्य नवदिल्ल्यां 26th-2023 इंडिया एआई इम्पैक्ट एक्सपो इत्येतस्य उद्घाटनं करिष्यति। पञ्चदिवसीय एक्सपो इति प्रदर्शनी सम्बद्ध कार्यक्रमः इंडिया एआई इम्पैक्ट समिट विंशति षड्विंशति इत्येतेन शिखर सम्मेलनेन सह आयोजयिष्यते, यत् आर्टिफिशियल इंटेलिजेंस इत्येतस्य राष्ट्रिय प्रदर्शन रूपेण कार्यं करिष्यति। अस्मिन् ऑस्ट्रेलिया, जापान, रूस, यूनाइटेड किंगडम, फ्रांस, जर्मनी, इटली, नीदरलैंड, स्विट्जरलैंड, सर्बिया, एस्टोनिया, ताजिकिस्तान, अफ्रीका इत्येतान् देशान् समेत्य 13 देशाः एआई इत्येतस्य व्यवस्थायाम् अन्ताराष्ट्रिय सहयोगं प्रदर्शयन्ति। अस्य त्रि मुख्य विषयाः सन्ति जनः, ग्रहः, प्रगतिश्च। प्रधानमन्त्रिणा नरेन्द्रमोदिना आगामि दशकाय 3 प्राथमिकताः सूचीबद्धाः कृताः। अधिकसंरचनात्मक परिष्कारः, नवानवेषणस्य गहनता, सरलं शासनञ्च। एकस्मिन् साक्षात्कारे श्रीमोदी अवदत् यत् तस्य प्रशासनस्य रिफॉर्म एक्सप्रेस इति सामान्य नागरिकेभ्यः अति लाभप्रदमस्ति। प्रधानमन्त्रिणा कथितं यत् अस्य वर्षस्य केन्द्रीय वित्त संकल्पना पत्रकं भारतस्य विकसित राष्ट्रं भवितुम् इच्छां प्रतिबिम्बयति इति। अद्य मुख्य निर्वाचनायुक्तस्य ज्ञानेश कुमारस्य अध्यक्षतायां भारतस्य निर्वाचनायोगस्य सम्पूर्णवर्गः आगामि विधानसभा निर्वाचनेभ्यः राज्येण कृताः सज्जताः समीक्षितुं गुवाहाटी नगरस्य यात्रां करिष्यति। स्वीय त्रिदिवसीय यात्रावधौ आयोगः राज्यस्य वरिष्ठाधिकारिभिः, विभिन्न राजनैतिक दलानां प्रतिनिधिभिः च सह विस्तृतोपवेशनं करिष्यति। स्थल सेनाध्यक्षः जनरल उपेन्द्र द्विवेदी अद्यारभ्य ऑस्ट्रेलियायाः 4-दिवसीय यात्रायां भविष्यति। रक्षामन्त्रालयेन कथितं यत् अस्याः यात्रायाः उद्देश्यमस्ति भारताऑस्ट्रेलिया रक्षा सहयोगस्य सुदृढीकरणम् अथ च द्वयोः देशयोः मध्ये वर्धमानस्य समन्वयस्य सुदृढीकरणञ्च। सेनाप्रमुखः ऑस्ट्रेलिया देशस्य रक्षाबलस्य वरिष्ठ नेतृत्वेन सह व्यापक संवादं करिष्यति। आईसीसी पुरुष 20-20 विश्व चषक क्रिकेट प्रतिस्पर्धायां भारतेन ह्यः रात्रौ कोलंबो नगरस्य आर प्रेमदासा क्रीडांगणे ग्रुप ए इत्येतस्मिन् वर्गे पाकिस्तान दलं 61 अंकै पराजितम्। अद्य त्रि स्पर्धाः भविष्यन्ति। प्रथमायां स्पर्धायां ग्रुप डी इत्येतस्मिन् वर्गे प्रातः 11 दिल्ल्याः अरुण जेटली क्रीडांगणे अफगानिस्तान दलं संयुक्तारबामीरात दलं सम्मुखीकरिष्यति। तत्रैव मध्याहने 3 कोलकातायाः ईडन गार्डन्स क्रीडांगणे ग्रुप सी इत्येतस्मिन् वर्गे इंग्लैंड दलं इटली दलं सम्मुखीकरिष्यति। तत्रैव सायं 7 पल्लकेले अन्ताराष्ट्रिय क्रिकेट क्रीडांगणे ऑस्ट्रेलिया दलं श्रीलंका दलं सम्मुखीकरिष्यति इति अवधेयास्पदं वर्तते। इति वार्ताः।